सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका, अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति। इत्युक्ते पिपीलिका शनैः शनैः चलित्वा सहस्रं योजनपर्यन्तं गन्तुं शक्नोति। वैनतेयः इत्युक्ते गरुडः, वैनतेयः गरुडः शक्तिमान् एव, परन्तु सः एकस्मिन् एव स्थले स्थित्वा कुत्रापि गन्तुं न इच्छति, अथवा कमपि प्रयत्नं कर्तुं न इच्छति चेत् सः यत्र स्थितवान् तत्र एव स्थास्यति। परन्तु पिपीलिका सदा प्रयासं कृत्वा बहु दूरं चलितुं शक्नोति। अतः वयमपि सर्वदा पिपीलिका इव किञ्चित् किञ्चित् प्रयासं कृत्वा अग्रे सर्तुम् इच्छामश्चेत् कालान्तरेण गम्यस्थानम् अस्माभिः प्राप्यते। परन्तु अत्र अस्माकं गम्यस्थानं किम् इत्युक्ते अस्माकं कार्यं किम्? अद्य संस्कृतपठनम्। अतः वयं सर्वे मिलित्वा नित्यं प्रतिदिनं किञ्चित् किञ्चित् प्रयत्नं कुर्मः चेदेव संस्कृताध्ययनविषये सफलाः भवितुं शक्ष्यामः। अतः वयं सर्वे मिलित्वा किञ्चित् संस्कृतपठनं कुर्मः, अनन्तरं सम्यक्। अनन्तरं वयं गते सप्ताहे अहं किञ्चित् गृहपाठं प्रेषितवती, गृहपाठविषये किञ्चित् पश्यामः अधुना। अत्र कादम्बरी भगिनी, भवती वदतु अत्र गृहपाठः कः आसीत्? कः आसीत्?
In page 22, part 4.4, special verb forms are given. Using those 10 verbs, write, we have to write 10 sentences.
Uttama. Bhavati krutavati va?
Kimchit.
Kimchit. Stavayatu. Bhavati kim kim rachitavati, kani kani vakyani rachitavati, stavayatu.
बालकः गृहपाठं करोति। बालकाः गृहपाठं कुर्वन्ति। बालिका आकाशवाणीं शृणोति। बालिकाः आकाशवाणीं शृण्वन्ति।
अनन्तरं
रामः धनं ददाति। रामः धनं ददन्ति ददति
ददति उत्तमम्। इतोपि रचितु तावदेव वा? इतोपि इतोपि वाक्यानि सन्ति? तावदेव वा?
न, अहम्
इतोपि श्रावयति वा?
इतोपि
तावदेव उत्तमम्। अनन्तरम् अत्र शायिरवळि भगिनी, भवती कृतवती वा गृहपाठम्?
आं भगिनि,
श्रावयतु वाक्यानि, श्रावयतु।
गणेशः कक्ष्ये निद्रां करोति। बालकाः क्रीडाङ्गणे व्यायामं कुर्वन्ति। सीता गीतां शृणोति।
गीतां शृणोति, अत्र पश्यतु, गीतां शृणोति वा अथवा गीतं शृणोति वा, रूपद्वयमपि भवितुम् अर्हति। यदि भगवद्गीता अथवा किमपि गीता, अष्टावक्रगीता तथा गीतां श्रोतुमि वक्तुमिच्छति, तत्र ध्वनिः अस्ति भगिनि.
क्षम्यतां भगिनि. सीता
भगिनि कस्मिन् गृहे ध्वनिः अस्ति? म्यूट् कुर्वन्तु सर्वे. अत्र वदतु भगिनि.
सीता गीतं शृणोति.
सीता गीतं शृणोति, उत्तमम्. अनन्तरं
विद्यार्थिन्यः
अन्यानि वा वदतु.
विद्यार्थिन्यः जातीयगीतं शृण्वन्ति.
विद्यार्थिन्यः जातीयगीतं शृण्वन्ति. अनन्तरं
कर्णः दानं ददाति. राजाः धनानि ददति.
उत्तमं.
सः
सम्यक् भगिनि. भगिनि भवत्याः पार्श्वे किञ्चित् ध्वनिः अस्ति, अतः म्यूट् करोमि. पुनः एकवारं पृच्छामि. सुब्बराव् महोदय, भवान् वदति वा? भवतः पार्श्वे वाक्यानि सन्ति चेत् वदतु. करोति वा महोदय? सुब्बराव् महोदय, भवतः पार्श्वे वाक्यानि सन्ति चेत् श्रावयतु. नो चेत् अत्र लक्ष्मी भगिनी भवती करोति वा?
कुर्वन्ति. ते सर्वदा कलहं कुर्वन्ति.
तदेव वाक्यम् एकवचने वदतु भगिनि. तदेव वाक्यं
सः सर्वदा कलहं करोति.
उत्तमम्. अन्यानि वाक्यानि श्रावयतु.
छात्राः सङ्गीतं शृण्वन्ति. बालिकाः वानरेभ्यः फलानि ददति.
वानरेभ्यः फलानि ददति, उत्तमं. कस्मै ददति? कस्मै न, केभ्यः केभ्यः ददति इत्युक्ते वानराः वानरेभ्यः ददति. उत्तमम्. अनन्तरं
मम छात्राः संस्कृतं जानन्ति.
मम छात्राः, पुनः वदतु भगिनि तदेव वाक्यं.
मम छात्राः संस्कृतां जानन्ति.
मम छात्राः संस्कृतं जानन्ति. उत्तमम्. अनन्तरं शक्नोति योजयित्वा वदतु.
अहं गन्तुं न शक्नोति.
पुनः
शक्नोमि, सारि.
अहं पुनः तदेव वाक्यं वदतु.
अहं गन्तुं न शक्नोमि
इत्युक्ते कुत्र गन्तुं न शक्नोमि तदपि कर्मपदमपि योजयित्वा वदतु. भवती कुत्र गन्तुं न शक्नोति?
अहं गृहे गन्तुं न शक्नोमि.
किञ्चित् समीकरोतु तत्र. कुत्र गन्तुं न शक्नोति भवती इत्युक्ते भवती गृहं गन्तुं न शक्नोति. किमर्थं तथा, किमर्थं भवती गृहं गन्तुं न शक्नोति?
ऐ डोण्ट् वाण्ट् टु गो होम्.
किमर्थं? सम्यक् सम्यक् भगिनि, उत्तमम्. अनन्तरं यदि अन्यानि वाक्यानि सन्ति चेत् श्रावयतु.
वयं कार्यं कुर्मः. वयं सङ्गीतं शृण्मः.
वयं सङ्गीतं शृणुमः, उत्तमम्. उत्तमं, तदेव.
वयम्
अत्र अत्र यदि भवन्तः जानन्ति चेत् अत्र विशेषाभ्यासः इति रूपेण दशक्रियापदानि दत्तानि. अत्र एतानि किमर्थं विशेषक्रियापदानि इति वदामः चेत् साधारणतया एकस्मिन् क्रियापदे भागद्वयम् अस्ति. भागद्वयम् इत्युक्ते अन्तिमवर्णः ति इति अस्ति. ति इत्यस्मात् पूर्वं यदि अकारः अस्ति चेत् तदा रूपं सामान्यं रूपं सिद्ध्यति. इत्युक्ते पठ् पठ् इति धातुतः पठति इति क्रियापदम् आगच्छति. तत्र पठति इत्यस्मिन् पदे ति इति अक्षरात् पूर्वम् अकारः अस्ति, अतः तस्य क्रियापदस्य बहुवचनरूपं पठन्ती भवति. साधारणतया क्रियापदानि, सामान्यानि क्रियापदानि तथा एव भवन्ति. यथा पठति पठन्ती भवति, भवति भवन्ति, खादति खादन्ति, गच्छति गच्छन्ती भवति. परन्तु अत्र क्रियापदानि तथा बहुवचनरूपाणि तथा न सिद्ध्यन्ति. किमर्थं तथा इत्युक्ते अत्र ति इत्यस्मात् पूर्वम् ओकारः अस्ति, अतः करोति इति क्रियापदम् अपि च शक्नोति शृणोति इति क्रियापदत्रयम् एकस्मिन् गणे सन्ति. इत्युक्ते गणस्य नाम अस्ति तनादिगणः इति वदामः. इत्युक्ते संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति, धातुतः साधारणतया क्रियापदम् आगच्छति. एतानि एते सर्वे उपद्विसहस्रं धातवः दशसु गणेषु उपस्थिताः सन्ति. अत्र करोति शृणोति शक्नोति एतानि पदानि तनादिगणे सन्ति, अपि च ददाति इति क्रियापदं जुहोत्यादिगणः इति नाम्ना एकस्मिन् गणे अस्ति, अपि च जानाति 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 इत्यस्मिन् पदे ति इति प्रत्ययात् पूर्वं दीर्घ आकारः अस्ति, अतः तस्य बहुवचनरूपं जानन्ति भवति. जानाति इति पदस्य बहुवचनरूपं जानन्ति. तथा एव अत्र शक्नोति इति पदस्य पदे ति इत्यस्मात् पूर्वम् ओकारः अस्ति, अतः तस्य बहुवचनरूपं शक्नुवन्ति इति भवति. परन्तु तत्तु अग्रे गत्वा वयं क्रियापदानां विषये किञ्चित् इतोपि ज्ञास्यामः. परन्तु अत्र विशेषाभ्यासरूपेण एतानि पदानि दत्तानि. परन्तु अत्र एकवचन प्रथमपुरुषे एकवचनरूपम् अपि च बहुवचनरूपं दत्तमस्ति. अनन्तरं दक्षिणभागे उत्तमपुरुषे एकवचनरूपम् अपि च बहुवचनरूपम् अपि दत्तमस्ति. यथा भवती पुनः एकवारं वदतु, उत्तमपुरुषे रूपाणि कथं भवन्ति? वदतु भगिनि.
करोमि
केवलं दक्षिणपार्श्वे, तत्र दक्षिणपार्श्वे उत्तमपुरुषे क्रियापदानि एकवचने अपि च बहुवचने रूपाणि कथं दृश्यते? वदतु. दृश्यन्ते.
अहं कार्यं न करोमि.
बहुवचने वदतु तदेव वाक्यं.
वयं कार्यं न कुर्मः.
उत्तमं. वयं कार्यं न कुर्मः. अपि च शृणोमि योजयित्वा वदतु.
अहं सङ्गीतं शृणोमि. वयं सङ्गीतं शृण्मः.
सङ्गीतं शृणुमः. ददामि ददामि योजयित्वा वदतु एकं वाक्यं.
अहं धनं ददामि. वयं धनं दद्मः.
वयं धनं दद्मः. अपि च जानामि जानामि योजयित्वा वदतु.
वयं अहं संस्कृतं जानामि. वयं संस्कृतं जानीमः.
वयं संस्कृतं जानीमः. अनन्तरं शक्नोमि शक्नोमि योजयित्वा वदतु.
अहं गन्तुं न शक्नोमि.
गन्तुं न शक्नोमि. बहुवचने
अहं
पठितुं भवती संस्कृतं पठितुं शक्नोति वा? भवती संस्कृतं पठितुं शक्नोति वा? उत्तरं ददातु.
भवन्तः
न न अहं पृच्छामि, भवती संस्कृतं पठितुं शक्नोति वा?
अहं संस्कृतं पठनं न शक्नोमि.
अहं संस्कृतं पठितुं न शक्नोमि, परन्तु भवती पठितुं शक्नोति, भवती अभ्यासपुस्तकं पठितुं शक्नोति. तदर्थम् उत्तरं किं भवति? आम्, अहं संस्कृतं पठितुं शक्नोमि. वयं सर्वे अपि अभ्यासपुस्तकं पठितुं शक्नुमः. उत्तमम्. अन्येषां पार्श्वे कानिचन वाक्यानि सन्ति चेत् श्रावयन्तु अत्र. श्रीरम्या भगिनी, भवती करोति वा पुनः? श्रावयतु वाक्यानि.
त्वं प्रातःकाले सन्ध्यावन्दनं करोति. यूयं प्रतिदिनं दन्तधावनं कुर्वन्ति.
पुनः एकवारं वदतु.
यूयं प्रतिदिनं दन्तधावनं कुर्वन्ति.
यूयं 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 कर्तृपदस्य विषये किञ्चित् वदतु भगिनि. मध्यमपुरुष
बहुवचन
मध्यमपुरुष बहुवचनं तदा बहुवचनं त्वं युवां यूयम् इति भवति. परन्तु बहुवचने करोति इति पदस्य रूपं कथं भवति भवती जानाति वा? नवरूपाणि
करोति न भगिनि.
अत्र अस्मिन् अभ्यासपुस्तके सर्वाणि रूपाणि न दत्तानि. इत्युक्ते अस्मिन् अभ्यासपुस्तके केवलं प्रथमपुरुषे एकवचने अपि च बहुवचने एव रूपं दत्तमस्ति. अपि च उत्तमपुरुषे एकवचन एकवचनरूपं बहुवचनरूपम् अपि अस्ति, न तु मध्यमपुरुष कर्तृपद क्रियापदरूपाणि न दत्तानि अत्र. यदि भवती जानाति चेत् वदतु, नो चेत् अग्रे गत्वा वयं ज्ञास्यामः. अहम् एकवारं वदामि, अत्र करोति इति पदस्य नवरूपाणि भवन्ति. करोति, कुरुतः, कुर्वन्ति. करोषि, कुरुतः, कुरुथ. करोमि, कुर्वः, कुर्मः. इत्युक्ते मध्यमपुरुषबहुवचनरूपं करोति इति पदस्य मध्यमपुरुषबहुवचनरूपं कुरुथ. इदानीं वदतु, समीकृत्य वदतु भगिनि.
यूयं प्रतिदिनं दन्तधावनं कुरुथ.
उत्तमम्. अन्यं वाक्यं श्रावयतु.
रामः ध्वनिमुद्रणं शृणोति. रामाः ध्वनिमुद्रणं शृण्वन्ति.
रामाः त्यजतु, किमपि वदतु. महिलाः वा?
सः रामात् उद्दिश्य एकं कार्यं ददाति.
अथवा भवती गृहपाठं करोति वा? अहं वदामि, उत्तरं ददातु. भवती गृहपाठं करोति वा?
आं भगिनि, अहं
वदतु, तदेव उत्तरं वदतु. भवती कृतवती. अहं गृहपाठं कृतवती. कृतवती इति पास्ट् टेन्स् भवति. लङ् भूतकालार्थे भवति, परन्तु अहं गृहपाठं करोमि एकं वाक्यम्. तथा एव भवती संस्कृतपठनं करोति वा?
अहं संस्कृतपठनं करोमि.
उत्तमम्. अहं संस्कृतपठनं करोमि. तथा एव भवती संस्कृतवार्तावली अस्ति. इत्युक्ते संस्कृतवार्तावलीं शृणोति वा?
अहं संस्कृतवार्तावली शृणोमि.
अहं संस्कृतवार्तावलीं शृणोमि. अपि च भवती उत्तमं भवती संस्कृत पाठस्य ध्वनिमुद्रणं शृणोति वा?
आम् अहं संस्कृतपाठस्य ध्वनिमुद्रणं शृणोमि.
उत्तमं तथा एव शृणोति. अथवा भवती सङ्गीतं शृणोति वा? उत्तरं किम्?
क्वश्चन् ऐ डिड् नॉट लिसन.
भवती सङ्गीतं शृणोति वा?
आम् अहं सङ्गीतं शृणोमि.
अहं सङ्गीतं शृणोमि. उत्तमं उत्तमं. तथा एव अहं वदामि अहं संस्कृतभाषाज्ञानं ददामि. कस्मै ददामि? केभ्यः ददामि? भवद्भ्यः संस्कृतभाषाज्ञानं ददामि. यदा कदापि अहं वदन्ती अस्मि भवन्तः सर्वे अवधानं दत्त्वा पठन्तु, अवधानं ददातु, अथवा भवती उत्तरं ददातु, भवान् उत्तरं ददातु इति अपि वाक्यं रचयितुं शक्नुमः. तथा एव अनन्तरं जानाति इति क्रियापदमस्ति. जानाति इत्यस्मिन् विषये एकं वाक्यं श्रावयतु.
सावित्री बहु पुराण उपाख्यानः जानाति.
पुनः एकवारं किञ्चित् समीकृत्य वदतु. सावित्री
सावित्री बहु पुराण उपाख्यानानि जानाति.
यदि पदम् उपाख्यानम् अस्ति चेत् उपाख्यानानि जानाति सावित्री. उत्तमम्. अत्र अहम् एकं वाक्यं वदामि. यदि भवन्तः सर्वे एका भारतीयभाषा जानाति चेत् संस्कृतभाषायाः अध्ययनं सुकरं भवति, सुकरः भवति. यदि वयम् एका भारतीयभाषा एकां भाषां जानीमश्चेत् तदा संस्कृतभाषाध्ययनं सुकरः भवति इत्यपि वक्तुं शक्नुमः. जानाति जानाति इति पदस्य रूपाणि कानि वक्तुं शक्नोति वा भगिनि? नवरूपाणि किञ्चित् आस्वादः भवति. प्रत्येकस्मिन् प्रत्येकस्य क्रियापदस्य नवरूपाणि भवन्ति. नवरूपाणि कानि? अत्र जानाति इति पदं दत्तमस्ति. जानाति जानीतः, जानन्ति, जानासि जानीतः, जानीथ, जानामि जानीवः, जानीमः. अत्र प्रथमपुरुषे त्रीणि रूपाणि भवन्ति, मध्यमपुरुषे अपि एकवचने द्विवचने बहुवचने त्रीणि रूपाणि सम्भवन्ति. अपि च उत्तमपुरुषे अपि जानामि जानीवः जानीमः इति रूपाणि भवन्ति. अनन्तरम् अत्र अन्तिमं क्रियापदं शक्नोमि इति दत्तमस्ति. तस्मिन् विषये किञ्चित् वदतु भगिनि. शक्नोति एकं वाक्यं रचयतु.
अहं नृत्यं शक्नोमि.
पुनः किञ्चित् पुनः चिन्तयित्वा वदतु. वदतु.
अहं संस्कृतभाषायां सम्भाषणं शक्नोमि.
सम्भाषणं कर्तुं शक्नोमि. भवती संस्कृतभाषायां सम्भाषणं कर्तुं शक्नोति. किञ्चित् प्रयासं कृत्वा सम्यक् उत्तमानि वाक्यानि अपि रचितुं शक्नोति भवती. उत्तमं. तद् उत्तमं वाक्यम्. अहं संस्कृतं पठितुं शक्नोमि. अहं वदामि वैद्यः किं कर्तुं शक्नोति वदतु.
वैद्यः वैद्यं कर्तुं शक्नोति
वैद्यः चिकित्सां कर्तुं शक्नोति वैद्यः चिकित्सां कर्तुं शक्नोति तथा एव पण्डितः किं पठितुं शक्नोति वदतु
पण्डितः पुराणानि वक्तुं शक्नुवन्ति
पण्डितः एकवचनं वदामि शक्नुवन्ति
शक्नोति
वक्तुं
पण्डिताः पण्डिताः पुराणानि वक्तुं शक्नुवन्ति
उत्तमं पण्डिताः पुराणानि वक्तुं शक्नुवन्ति इत्युक्ते अथवा पण्डितः रामायणं पठितुं शक्नोति अध्यापकः किं कर्तुं शक्नोति
अध्यापकः अध्यापनं कर्तुं शक्नोति
उत्तमम् इत्युक्ते पाठं पाठयितुं शक्नोति उत्तमम् अनन्तरं भवती वेदम् उच्चारयितुं शक्नोति वा
अहं वेदम् उच्चारयितुं न शक्नोमि
उत्तमम् आरक्षकः किं कर्तुं शक्नोति आरक्षकः इत्युक्ते किं कः सः किं कर्तुं शक्नोति
रक्षणं कर्तुं शक्नोति
तदेव वाक्यं सम्यक् रीत्या वदतु
आरक्षकः रक्षणं कर्तुं शक्नोति
उत्तमं जनानां रक्षणं कर्तुं शक्नोति अनन्तरं ग्रामीणाः कृषकाः सन्ति चेत् कृषकाः कृषिकार्यं कर्तुं शक्नुवन्ति कृषिकार्यं कर्तुं शक्नुवन्ति तथा एव संस्कृतभाषायाः विषये वयं कानिचन वाक्यानि रचयितुं शक्नुमः यथा अहं संस्कृतं किञ्चित् अवगन्तुं शक्नोमि तथा एव अहं शनैः संस्कृतभाषया वक्तुं शक्नोमि अहं संस्कृतपुस्तकम् इत्युक्ते अभ्यासपुस्तकं पठितुं शक्नोमि अहं संस्कृतेन सम्भाषणं कर्तुं शक्नोमि केचन छात्राः लिखितवन्तः अहम् अद्य कक्ष्याम् आगन्तुं न शक्नोमि इति लिखितवन्तः सम् स्टूडेण्ट्स् रोट् टु मी दट् दे कुडन्ट् अटेण्ड् द क्लास् टुडे अतः अहं संस्कृतकक्ष्याम् आगन्तुं न शक्नोमि इति ते उक्तवन्तः उत्तमम् अनन्तरम् अत्र गृहपाठस्य विषये एतदेव अत्र सुब्बरमहोदय भवान् वदति वा अधुना
भगिनि अहं न श्रूयते भगिनि समीचीनं न श्रूयते
ओ भवती सम्यक् न श्रूयते वा सर्वे किं चिन्तयन्ति सम्यक् न श्रूयते वा
सम्यक् श्रूयते
उत्तमम् सम्यक् श्रूयते भगिनि कादम्बरी भगिनी उक्तवती अत्र सुब्बारो महोदय अहं कानिचन प्रश्नान् पृच्छामि भवान् उत्तरं वदतु
आम्
अत्र अहम् एकवचनरूपं क्रियापदं रूपं वदामि भवान् बहुवचनरूपं वदतु
आम्
गच्छन्ति आगच्छति
आगच्छन्ति
विशति विशन्ति
उपविशति
उपविशति
उपविशन्ति
तिष्ठति
तिष्ठन्ति
उत्तिष्ठति
उत्तिष्ठन्ति
पश्यति
पश्यन्ति
पचति पचति
पश्यति
न न महोदय पश्यति पश्यन्ति भवति परन्तु अहं वदामि अधुना पचति इति वदामि अहं माता
पचति पचन्ति
उत्तमं पिबति
पिबन्ति
खादति
खादन्ति
लिखति
लिखन्ति
पठति
पठन्ति
वदति
वदन्ति
पृच्छति
पृच्छन्ति
नयति
नयन्ति
हसति
हसन्ति
आनयति
आनयन्ति
चलति
चलन्ति
क्रीडति
क्रीडन्ति
उत्तमम् अन्तिमतया करोति वदतु
कुर्वन्ति
किमर्थं तथा
करोति कुर्वन्ति
करोति इति पदस्य रूपं कुर्वन्ति भवति किमर्थं तथा अहं पूर्वम् उक्तवती किञ्चित् वक्तुं शक्नोति वा इत्युक्ते अत्र करोति इति क्रियापदं तनादिगणे स्थापितमस्ति अतः तस्य बहुवचनरूपं भिन्नं भवति अतः एव विशेषक्रियापदम् इति वदामः तत्र नियमाः सन्ति परन्तु नियमानां विषये अग्रे गत्वा वयं पठिष्यामः परन्तु इदानीम् अवगच्छतु यत् एतत् विशेष एषः एतत् विशेषं क्रियापदम् अनन्तरम् अहम् उत्तमपुरुषे एकवचनरूपं वदामि बहुवचने वदतु गच्छामि गच्छामि
गच्छामः
आगच्छामि
आगच्छामः
उपविशामि
उपविशामि उपविशामः
उत्तमं तिष्ठामि
तिष्ठामः
उत्तिष्ठामि
तिष्ठामः उत्तिष्ठामः
पश्यामि
पश्यामः
पचामि
पचामः
पिबामि
पिबामः
खादामि
खादामः
लिखामि
लिखामः
वदामि
वदामः
पठामि
पठामः
नयामि
नयामः
आनयामि
आनयामः
हसामि
हसामः
चलामि
चलामः
क्रीडामि
क्रीडामः
करोमि
कुर्मः
उत्तमं शृणोमि
शृण्मः
शक्नोमि
शक्नुमः
जानामि
जानीमः
उत्तमं ददामि
दद्मः
उत्तमम् इत्युक्ते अहं चिन्तयामि भवान् जानाति एव एतेषां क्रियापदानाम् अर्थः कः इति भवान् जानाति इति अहं चिन्तयामि जानाति वा क्रियापदानाम् अर्थः कः
जानामि
उत्तमम् अनन्तरम् अत्र एतानि क्रियापदानि लट् लकारे सन्ति लट् लकारे इत्युक्ते वर्तमानकाले सन्ति परन्तु अहं लोट् लकारे पृच्छामि लोट् लकारे अपि एकवारं वदतु महोदय अत्र गच्छतु किं भवति
गच्छतु लोट् लकार करोतु
इव
क्रीडतु
अत्र गच्छतु गच्छतु किं भवति बहुवचने
गच्छन्तु
आगच्छतु
आगच्छन्तु
उपविशतु
उपविशन्तु
एकं वाक्यं रचयतु उपविशन्तु योजयित्वा लघुवाक्यं लघुवाक्यम्
अहं प्रातःकाले ज्ञानार्थम् उपविशामि
उत्तमम् उत्तमं वाक्यं परन्तु उपविशामि इति तत्र वाक्यं वर्तमानकाले अस्ति परन्तु अहं पृच्छामि लोट् लकारे रचयतु
उपविशतु ध्यानार्थं सर्वे उपविशतु.
सर्वे उत्तमं वाक्यं, परन्तु किञ्चित् समीकरोतु अत्र. ज्ञानार्थं सर्वे, सर्वे इति पदं, तस्य वचनं किं?
बहुवचनं.
तदर्थं
उपविशन्तु.
पुनः तदेव वाक्यं वदतु.
ध्यानार्थं सर्वे उपविशन्तु.
उत्तमम्. अनन्तरं तिष्ठतु, बहुवचनं वदतु.
तिष्ठन्तु.
उत्तिष्ठतु.
उत्तिष्ठन्तु.
एकं वाक्यं रचयतु उत्तिष्ठन्तु योजयित्वा.
उत्तिष्ठन्तु.
तदेव. सर्वे सर्वे उत्तिष्ठन्तु.
सर्वे उत्तिष्ठन्तु.
उत्तमम्. अनन्तरं पश्यतु, पश्यतु इति पदस्य बहुवचनरूपं वदतु, लोट्लकार.
पश्यन्तु.
पचतु.
पचन्तु.
पिबतु.
पिबन्तु.
खादतु.
खादन्तु.
उत्तमं. लिखतु.
लिखन्तु.
लिखतु योजयित्वा एकं वाक्यं रचयतु.
अहं गृहपाठं सारि अहं लिखन्तु गृहपाठं लिखन्तु.
गृहपाठं लिखन्तु. उत्तमं. भवान् उत्तरं, भवान् उत्तरं लिखतु इति अहं वदामि. पठतु. पठतु इति पदस्य, पठतु इति पदस्य बहुवचनं किं भवति?
पठन्तु.
वदतु.
वदन्तु.
पृच्छतु.
पृच्छन्तु.
आनयतु.
आनयन्तु.
हसतु.
हसन्तु.
चलतु.
चलन्तु.
क्रीडतु.
क्रीडन्तु.
उत्तमम्. अनन्तरम् अन्तिमं पदमस्ति करोतु, किं भवति?
करोतु.
करोतु, तस्य रूपं किं भवति लोट्लकारे? बहुवचनं
करोतु. कुर्वन्तु.
उत्तमम्. उत्तमं. करोतु. कुर्वन्तु. कुर्वन्तु योजयित्वा एकं वाक्यं रचयतु.
बालकाः बालकाः गृहपाठं कुर्वन्तु.
उत्तमं. बालकाः गृहपाठं कुर्वन्तु इत्युक्ते तत्र बालकान् उद्दिश्य भवान् वदति सर्वे गृहपाठं कुर्वन्तु इति आज्ञार्थे वा प्रार्थनार्थे वा तथा वदामः. धन्यवादः महोदय. अनन्तरं कादम् अत्र अपि च अत्र लक्ष्मी भगिनी भवती करोति वा? अत्र अभ्यासपुस्तके त्रयोविंशतितमे पुटे तत्र कति इति पदं दत्तमस्ति. त्रयोविंशतितमे पुटे त्रयोविंशतिः इत्युक्ते किं वदतु?
ट्वेण्टि त्रि.
उत्तमं. कति इति पदं जानाति वा भवती?
हौ मेनि.
कति. कति इति पदं प्रश्नार्थकपदम् अथवा प्रश्नवाचकपदम्. अस्मिन् पुटे त्रयोविंशतितमे पुटे अत्र किं दत्तमस्ति एकवारं भवती एव, वयं पूर्वमेव पठितवन्तः, पुनः एकवारं पुनस्मरणं भवति इति मत्वा किञ्चित् करोतु एकवारं सूचनां पठित्वा. करोतु.
उदाहरणं दृष्ट्वा तादृशानि वाक्यानि लिखतु.
तादृशानि वाक्यानि लिखतु. तादृशानि वाक्यानि इत्युक्ते किं जानाति वा? तादृशानि वाक्यानि
looking at.
कीदृशानि वाक्यानि? तादृशानि वाक्यानि, एतादृशानि वाक्यानि. अत्र वाक्यानि दत्तानि, तान् दृष्ट्वा, तानि वाक्यानि दृष्ट्वा तादृशानि वाक्यानि लिखतु. अवगतवती वा सूचना का?
आम्.
पठतु, अधुना पठतु.
पञ्चस्यूताः सन्ति, कति स्यूताः सन्ति?
तथा एव प्रष्टव्यं. प्रश्नं कथं प्रष्टव्यम् इत्युक्ते, कति स्यूताः सन्ति इति प्रश्नं पृच्छामश्चेत् तस्य उत्तरं किं भवति? पञ्चस्यूताः सन्ति. अनन्तरं करोतु.
षट् फलानि सन्ति, कति फलानि सन्ति? षट् फलानि सन्ति.
उत्तमम्. अनन्तरम्?
अष्टपर्णानि सन्ति, कति पर्णानि सन्ति? अष्टपर्णानि सन्ति.
उत्तमम्. अनन्तरं?
षड् वातायनानि सन्ति, कति वातायनानि सन्ति? षड् वातायनानि सन्ति.
वातायनानि सन्ति. एकवचनं वदतु. वातायनानि पदस्य एकवचनरूपं किम्?
वातायनि सन्ति, अस्ति.
अत्र एकवचनरूपं किं भवति? वातायनम्
अस्ति.
वातायनम् इति एकवचनरूपम्. अत्र एकवचने वाक्यं रचयतु. अत्र बहुवचने दत्तमस्ति. षट् वातायनानि सन्ति इति दत्तमस्ति.
एकः वातायनं सन्ति, अस्ति.
किञ्चित् समीकरोतु.
एक वातायनं सन्ति, अस्ति.
अत्र कथं वदामः इत्युक्ते, अत्र वातायनम् इति पदं नपुंसकलिङ्गपदम्, अतः एकं वातायनम् अस्ति, तथा वदामः. अग्रिमं करोतु.
सप्त अङ्कन्यः सन्ति, कति अङ्कन्यः सन्ति? सप्त अङ्कन्यः सन्ति.
उत्तमम्.
पञ्चकुञ्चिकः सन्ति, कति कञ्चिकः सन्ति? पञ्च कुञ्चिकः सन्ति.
पञ्चकुञ्चिकाः सन्ति. कुञ्चिका इत्युक्ते भवती जानाति वा कुञ्चिका इत्युक्ते किम्?
की.
की, उत्तमम्. अत्र पश्यतु भगिनी, सर्वाणि वाक्यानि बहुवचने सन्ति. भवती एकवारम् एकवचने वक्तुं शक्नोति वा? एकमेकं वाक्यं स्वीकृत्य एकवचने रचयतु.
एका कुञ्चिका अस्ति. एकम् अङ्कन्यः अस्ति.
अत्र पश्यतु, अङ्कन्यः, अङ्कन्यः इति पदं दत्तमस्ति. अङ्कन्यः इति पदं बहुवचने अस्ति. तस्य एकवचनरूपं किं भवितुम् अर्हति? कथं भवति?
अङ्कनी, अङ्कनीम् अङ्कनम्.
यदि अङ्कनी इति अस्ति चेत् तस्य बहुवचनरूपं
एका अङ्कनी अस्ति.
एका अङ्कनी अस्ति. अनन्तरम्?
एकं वातायनी अस्ति.
एकं वातायनम् अस्ति. अनन्तरम्?
एकपर्णा अस्ति.
एकं पर्णम् अस्ति. उत्तमम्. अनन्तरम् अग्रिमं करोतु.
एकं फलम् अस्ति.
एकं फलम् अस्ति. अनन्तरम्?
एकं स्यूतः अस्ति.
चिन्तयित्वा वदतु. स्यूतः इति पदमस्ति, बहुवचनरूपं स्यूताः. अधुना वदतु. इत्युक्ते वदतु.
एका स्यूता अस्ति.
अत्र अहं वदामि
स्यूतम् अस्ति.
अत्र चिन्तयतु भगिनि. कादम्बरी भगिनी, भवती वक्तुं शक्नोति वा एकवचने किं वदामः अत्र, कथं सम्यक् रीत्या वदतु चिन्तयित्वा.
प्रश्नः पुनवारं वदति वा?
अत्र पञ्चस्यूताः सन्ति इति वाक्यमस्ति, एकवचने वदतु.
एकं स्यूतम् अस्ति.
एकं स्यूतम् अस्ति अत्र इत्युक्ते, अत्र भवती चिन्तितवती यत् स्यूतः इति स्यूतं स्यूतः इति पदं नपुंसकलिङ्गपदम् इति चिन्तयित्वा भवती नपुंसकलिङ्गे एव उक्तवती, परन्तु अत्र स्यूतः इति पदं पुंलिङ्गपदम्. अधुना वदतु.
एकः स्यूतः अस्ति.
उत्तमम्. एकः स्यूतः अस्ति, तदेव समीचीनं वाक्यम्. उत्तमम्. इदानीं पर्यन्तं वयं कति इत्यस्मिन् विषये किञ्चित् ज्ञातवन्तः. भगिनी, अधुना अहं कांश्चन प्रश्नान् पृच्छामि, भवती एव उत्तरं वदतु.
अस्तु.
भवत्याः गृहे कति प्रकोष्ठाः सन्ति?
त्रीणि प्रकोष्ठाः सन्ति.
वाक्यं पूर्णतया वदतु.
मम गृहे त्रीणि प्रकोष्ठाः सन्ति.
उत्तमम्. इत्युक्ते तत्र प्रकोष्ठः इति पदं पुंलिङ्गे अस्ति, अतः त्रीणि इति पदस्य पुंलिङ्गरूपं योजयित्वा एव वक्तुं शक्नुमः. अतः त्रयः प्रकोष्ठाः सन्ति. उत्तमं भगिनि. अनन्तरं भवत्याः गृहे कति वातायनानि सन्ति?
मम गृहे दश वातायनानि सन्ति.
दशवातायनानि सन्ति. अनन्तरं भवत्याः गृहे कति दूरवाण्यः सन्ति?
मम गृहे त्रयः दूरवाणी सन्ति.
अत्र पश्यन्तु, अत्र दूरवाणी इति पदं स्त्रीलिङ्गे अस्ति, अतः त्रीणि इति पदस्य स्त्रीलिङ्गरूपम् आवश्यकम्.
अस्तु.
वक्तुं शक्नोति वा, तिस्रः मम गृहे वदतु.
मम गृहे तिस्रः दूरवाणीं सन्ति.
तिस्रः दूरवाण्यः सन्ति. दूरवाणी इति पदस्य बहुवचनं किं भवति?
दूरवाण्यः.
उत्तमं. यथा नदी नद्यः, तथा एव दूरवाणी दूरवाण्यः इति भवति. भवत्याः गृहे कति दूरदर्शनानि सन्ति?
मम गृहे एकदूरदर्शनम् अस्ति.
मम गृहे एकं दूरदर्शनम् अस्ति. सम्यक् वा? उत्तमं. धन्यवादः भगिनि. अनन्तरम् अधुना शायरवळ्ळि भगिनी, भवती करोति वा अधुना?
आं भगिनि.
अत्र अधुना अहम् अन्यान् प्रश्नान् पृच्छामि. घट्यां कति सङ्ख्याः सन्ति? घट्यां कति सङ्ख्याः सन्ति?
तिस्रः घट्यः सन्ति.
न न न भगिनी, अहं किं पृष्टवती? घट्यां घट्यां कति सङ्ख्याः सन्ति?
घट्यां द्वादशसङ्ख्यां सन्ति.
घट्यां द्वादशसङ्ख्याः सन्ति, द्वादशपर्यन्तम्, एकतः द्वादशपर्यन्तं सङ्ख्याः सन्ति. आम्. अपि च घण्टायाम् एका घण्टा अस्ति. घण्टायाम् एकां घण्टायां कति निमिषाः सन्ति? कति निमिषाः सन्ति?
षष्ठः निमिषाः सन्ति.
षष्टिः, पुनः वदतु.
एकघटे
घण्टायाम्
एकघण्टायां षष्ठिः निमिषाः सन्ति.
तत्र षष्टिः एव, तत्र महाप्राणठकारः नास्ति, केवलम् अल्पप्राण टकारः एव अस्ति. घण्टायां षष्टिः निमिषाः सन्ति. अपि च दिने कति घण्टाः सन्ति एकस्मिन् दिने?
चतुर्विंशति घण्टा सन्ति.
उत्तमं, चतुर्विंशतिः घण्टाः सन्ति. अपि च एकस्मिन् सप्ताहे कति दिनानि सन्ति?
एकः सप्ताहे सप्तदिनानि सन्ति.
एकस्मिन् सप्ताहे सप्तदिनानि सन्ति. अपि च एकस् मासे कति दिनानि सन्ति?
मासे त्रिंशतिः दिनानि सन्ति.
भवती एकवारं पठितवती वा सङ्ख्यानां विषये? सङ्ख्याः पठितवती वा?
एकवारम् अपि
अत्र किं भवति, मासे कति दिनानि सन्ति इति अहं पृष्टवती. तस्य उत्तरं किं भवति?
मासे त्रिंशत् दिनानि सन्ति.
मासे त्रिंशत् दिनानि सन्ति. अनन्तरं यदि भवती जानाति चेत् पक्षे कति दिनानि सन्ति?
पक्षे पञ्चदशदिनानि सन्ति.
उत्तमं, पञ्चदशदिनानि सन्ति. अपि च वत्सरे कति मासाः सन्ति?
वत्सरे द्वादशमासाः सन्ति.
उत्तमम्. एकस्मिन् वत्सरे कति दिनानि सन्ति? वदतु, प्रयत्नं करोतु. वदतु.
वत्सरे त्रयशतं.
कः वदति सम्यक् रीत्या? कः वदति भवती? प्रयत्नं करोतु, सर्वे चिन्तयन्तु.
पञ्चषड् त्रिशतं दिनानि सन्ति.
कथा वक्तव्यं? कः वदति? कः प्रयत्नं करोति?
त्रिशताधिक पञ्चषष्टिः.
उत्तमं महोदय, सम्यक् प्रयत्नं कृतवान् भवान्. अत्र पुनः तदेव वदतु, कथं वक्तव्यम् इत्युक्ते वदतु महोदय.
त्रिशताधिक पञ्चषष्टिः पञ्चषष्टिः दिनाङ्क सन्ति.
दिनानि सन्ति, दिनानि सन्ति अत्र. अत्र कथं वक्तव्यम् इत्युक्ते त्रिशतत्यधिकपञ्चषष्टिः अथवा त्रिशतत्युत्तरपञ्चषष्टिः दिनानि सन्ति एकस्मिन् संवत्सरे. त्रिशतत्युत्तर, उत्तर इति वदामश्चेत् अपि अधिकः इति एव अर्थः भवति. अतः त्रिशतत्युत्तरपञ्चषष्टिः दिनानि अथवा त्रिशतत्यधिक पञ्चषष्टिः दिनानि सन्ति एकस्मिन् वत्सरे. उत्तमम्. अनन्तरं भारतीयकालमानरीत्या वत्सराणां नामानि सन्ति. भवन्तः जानन्ति वा वत्सराणां नामानि कानि? यथा प्रभवा विभव तथा वदामः. वत्सराणां नामानि दत्तानि. कति नामानि दत्तानि?
षष्टिः नामानि.
षष्टिः नामानि दत्तानि. परन्तु एतानि नामानि एकवारम् आगत्य षष्टिसंवत्सराणां सर्वाणि नामानि एकवारं आगच्छन्ति चेत् अनन्तरम् आगमनानन्तरं पुनः एकवारं तान्येव नामानि पुनरावृत्तानि भवन्ति. तत् वयं जानीमः. एकवारं एतानि नामानि आगत्य अनन्तरं पुनः एकवारं सर्वाणि नामानि पुनः आवृत्तानि भवन्ति इति वयं जानीमः. अत्र अस्मिन् पुटे एकः विषयः स्मर्तव्यः. देर् इस् वन् थिङ्ग् दट् वि नीड् टु रिमेम्बर् आल् द टैम्. स्मर्तव्यः विषयः कः अस्मिन् पुटे? कः वदति? वाट् शुड् बि रिमेम्बर्? वाट् इस् द मोस्ट् इम्पार्टेण्ट् थिङ्ग् दट् शुड् बि रिमेम्बर्ड् इन् दिस् पेज्? कः वदति?
लिङ्गम्.
लिङ्गम् अनुसृत्य सङ्ख्याः वदामः. एकः विषयः. अनन्तरं अधोभागे एका सूचना अस्ति, विशेषसूचना. तत् किम् इत्युक्ते सर्वदा कति सन्ति इति एव वक्तव्यः, न तु कति अस्ति. तत्तु विशेषसूचना. अस्मिन् पुटे वयं सर्वे अपि स्मर्तव्यम् इत्युक्ते प्रमुखविषयः, एकः मुख्यबिन्दुः. सर्वदा कति सन्ति इति एव वक्तव्यं, न तु कति अस्ति. अनन्तरं चतुर्विंशतितमे पुटे, इदानीं पर्यन्तं त्रयोविंशतितमः पुटः समाप्तः, अपि च चतुर्विंशतितमे पुटे किम् अस्ति? अत्र कः वदति? अत्र 816 यः उक्तवती, सम्यक्तया अहं नाम न जानामि, भगिनी वदति वा? भवती जानाति चेत् वदति वा अत्र? नो चेत् अत्र 240252 8116 कस्याः दूरवाणीसङ्ख्या? 240252 8116. नाम उच्यताम्?
I'm Uma sister.
कः? पुनः एकवारं नाम वदतु.
उमा.
उमा. भवती कर्तुम् इच्छति वा भगिनि? न करोति. अस्तु. अनन्तरम् अत्र लक्ष्मी भगिनी चतुर्विंशतितमे पुटे तत्र किं दत्तमस्ति इति वदतु एकवारम्.
अत्र प्रश्नस्य एकम् उत्तरं लिखितम् अस्ति. आवरणे विद्यमानस्य पदस्य सहायेन पुनः त्रीणि उत्तराणि लिखतु.
इत्युक्ते अत्र एकम् उत्तरं पूर्वमेव लिखितमस्ति, परन्तु आवरणे विद्यमानस्य पदस्य साहाय्येन पुनः त्रीणि वाक्यानि रचनीयानि. रचनीयानि. प्रयत्नं करोतु. अत्र
कुत्र पुस्तकम् अस्ति?
कुत्र?
स्यूते पुस्तकम् अस्ति. ग्रन्थालये पुस्तकम् अस्ति. आपणे पुस्तकम् अस्ति. हस्ते पुस्तकम् अस्ति.
उत्तमं. भवती भवती स्यूतः इति पदं स्यूते किमर्थं भवति भवती जानाति वा? रूपं किमर्थं परिवर्तितं भवति?
स्यूते इन् द बाग्
विभक्तिः का जानाति वा?
तृतीया विभक्ति
न भगिनी भवती उत्तरम भवती सम्यक्तेव सम्यक्तया उक्तवती परन्तु विभक्तिः कः वदति स्यूतः इति पदस्य
सप्तमी विभक्ति भगिनी
सप्तमी विभक्ति स्यूतः इति पदस्य सप्तमी रूपं स्यूते इति भवति उत्तमं लक्ष्मी भगिनी भवती एव वदतु ग्रन्थालयः इति पदस्य सप्तमी रूपं किं
ग्रन्थालये
आपणः
आपणे
अपि च हस्तः
हस्ते
इत्युक्ते भवती अत्र सप्तमी विभक्तिरूपम् उक्तवती पुस्तकं कुत्र अस्ति इत्यस्य उत्तरं किं भवति पुस्तकं स्यूते अस्ति अथवा ग्रन्थालये अस्ति अथवा आपणे अस्ति नो चेत् हस्ते अस्ति इति एव वक्तुं शक्नुमः इत्युक्ते अत्र कोष्टके यत् पदं दत्तमस्ति तस्य सप्तमी विभक्तिरूपं चित्वा भवती वाक्यं रचितवती अनन्तरं किं दत्तमस्ति पठतु अग्रे पठतु
कुत्र बालकः अस्ति गृहे बालकः अस्ति नगरे बालकः अस्ति चित्रमन्दिरे बालकः अस्ति उपहारगृहे बालकः अस्ति
अत्र पश्यतु पूर्वं स्यूतः ग्रन्थालयः आपणः हस्तः चत्वारि पदानि दत्तानि परन्तु एतानि चत्वारि पदानि पुंलिङ्गे सन्ति अतः यदि पदं पुंलिङ्गे अस्ति चेत् तस्य सप्तमीविभक्तिरूपं किं भवति स्यूतः स्यूते भवति हस्तः हस्ते भवति परन्तु अत्र पदं नपुंसकलिङ्गे दत्तमस्ति गृहम् इति पदं कस्मिन् लिङ्गे अस्ति
गृहं नपुंसकलिङ्ग
उत्तमं नगरं
नपुंसकलिङ्ग
चित्रमन्दिरं
नपुंसकलिङ्ग
उपाहारगृहं
नपुंसकलिङ्ग
भवती कथं जानाति कथं वक्तुं शक्नोति भवती तत् यत् पदं नपुंसकलिङ्गे अस्ति इति भवती कथं जानाति वदतु
इट् एण्ड्स् वित्
अन्ते अन्ते मकारः अस्ति अन्ते मकारः अस्ति यदि पदस्य अन्ते मकारः अस्ति चेत् वयं साधारणतया अवगन्तुं शक्नुमः यत् तत्पदं नपुंसकलिङ्गे अस्ति इति वयं ज्ञातुं शक्नुमः तथा एव यदि पदस्य अन्ते विसर्गः अस्ति चेत् तत्पदं पुंलिङ्गे अस्ति इति वयं वक्तुं शक्नुमः परन्तु अत्र भवती कृतवती अत्र गृहम् इति पदस्य सप्तमी रूपं किम् अभवत्
गृहे
नगरम् इत्यस्य
नगरे
चित्रमन्दिरं
चित्रमन्दिरे
उपाहारगृहम्
उपाहारगृहे
तथा एव अत्र यदि वयं कुत्र अस्ति कुत्र बालकः अस्ति इति पृच्छामश्चेत् साधारणतया तस्य उत्तरं सप्तमी विभक्तौ एव भवति तथा एव अत्र पुंलिङ्गपदस्य सप्तमी रूपम् अपि च नपुंसकलिङ्गपदस्य सप्तमी रूपं समानम् एकवचने भवती अवगतवती वा इत्युक्ते अत्र ग्रन्थालयः इति पदस्य सप्तमी रूपं ग्रन्थालये परन्तु अत्र नगरम् इति पदस्य सप्तमी रूपम् अपि
नगरे
नगरे इति भवति अग्रिमं पठतु
कुत्र पाञ्चालिका अस्ति कुत्र पाञ्चालिका अस्ति उत्पीठिकायां पाञ्चालिका अस्ति कपाटिकायां पाञ्चालिका अस्ति
कपाटिकायाम् अस्ति उत्तमं करोतु
पेटिकायां पाञ्चालिका अस्ति निधानिका निधानिकायां पञ्चलिङ्ग अस्ति.
पुनः सम्यक् रीत्या अवधानं दत्वा पठतु भगिनी. अत्र पाञ्चालिका अस्ति, सम्यक् रीत्या उच्चारयतु. निधानिकायां पाञ्चालिका अस्ति. पाञ्चालिका इत्युक्ते किं का इति भवती जानाति वा?
डाल्.
अत्र उत्पीठिका, कपाटिका, पेटिका, निधानिका इति चत्वारि पदानि सन्ति. एतेषां पदानां विभक्तिः का वदतु?
प्रथमविभक्तिः.
उत्तमं. लिङ्गं किम्?
स्त्रीलिङ्ग.
कथं ज्ञातवती भवती? इत्युक्ते आकारान्तस्त्रीलिङ्गपदानि एतानि. अपि च वचनं किम्?
एकवचनं.
बहुवचने वक्तुमिच्छति चेत् वदतु. उत्पीठिका किं भवति?
उत्पीठिकाः.
कपाटिका?
कपाटिकाः.
पेटिका?
पेटिकाः.
निधानिका?
निधानिकाः.
बहुवचनरूपं वदतु. गृहं? बहुवचनरूपं गृहाणि. अपि च नगरं, नगरम् इति पदस्य बहुवचनं?
नगराणि. नगराणि.
नगराणि. चित्रमन्दिरं?
चित्रमन्दिराणि.
उपाहारगृहम्?
उपाहारगृहमाणि.
उपाहारगृहाणि. अनन्तरं करोतु. कुत्र मन्दिरम् अस्ति तदपि पठतु.
कुत्र मन्दिरम् अस्ति? काश्यां मन्दिरम् अस्ति. उज्जयिनां मन्दिरम् अस्ति. पुरीं जगन्नाथमन्दिरम् अस्ति.
पूर्यां
जगन्नाथमन्दिरम् अस्ति.
उत्तमं.
कन्याकुमारी मन्दिरम् अस्ति.
कन्याकुमार्यां मन्दिरम् अस्ति. कन्याकुमार्यां मन्दिरमस्ति. अत्र कपाटिका, उत्पीठिका, पेटिका, निधानिका एतेषां पदानां सप्तमी विभक्ति एकवचनरूपं किम् अभवत् तत्र?
उत्पीठिकायां.
तथा भवति. परन्तु अत्र चत्वारि पदानि सन्ति. काशी, उज्जयिनी, पुरी, कन्याकुमारी इति नाम्ना चत्वारि पट्टणानि दत्तानि. एतेषां पदानां सप्तमी विभक्ति एकवचनरूपं किम् अभवत् अत्र?
काश्यां.
काश्यां, उज्जयिन्यां, पूर्यां, कन्याकुमार्यां. यदि कुत्र अस्ति इति प्रश्नस्य उत्तरं वक्तुमिच्छामश्चेत् तदा सर्वदा सप्तमी विभक्ते एव तस्य उत्तरं भवति. भवती कुत्र अस्ति वदतु. अधुना भवती कुत्र अस्ति?
अहं स्टोनीब्रुक्याम् अस्ति.
इत्युक्ते भवती गृहे अस्ति वा न वा किमपि? इत्युक्ते अत्र अहं गृहे अस्मि इति वदामश्चेत् तत्र गृहम् इति पदस्य सप्तमी रूपं योजयित्वा वयं वाक्यं रचयामः. उत्तमं भगिनि, धन्यवादः. सुचित्रा भगिनी, भवती करोति वा? पञ्चविंशतितमे पुटे तत्र एकं कोष्टकं दत्तमस्ति. कोष्टकस्य आधारेण दशवाक्यानि लिखतु.
आं भगिनि.
वदतु, वदतु.
मम पिता कार्यालय कार्य करोति.
अत्र कार्यम् इति दत्तमस्ति.
ओके, कार्यं करोति. मम पिता वित्तकोशः कार्यं करोति.
अत्र पश्यतु भगिनि, अत्र वित्तकोशः कार्यालयः इति पदद्वयं दत्तमस्ति, परन्तु भवती अत्र पदस्य रूपपरिवर्तनं कृत्वा एव वक्तव्यम्. अत्र वाक्यं रचनीयं वित्तकोशः इति पदं
कार्यं करोति. मम पिता कार्यालयं कार्यं करोति.
तत् वाक्यं समीचीनं वा? चिन्तयतु. सर्वे किं चिन्तयन्ति? मम पिता कार्यालयं कार्यं करोति इति वाक्यं समीचीनं वा न वा?
कार्यालये कार्यं करोति.
उत्तमम्, उत्तमम्. इत्युक्ते मम पिता, अत्र पश्यतु भगिनि, मम पिता, अत्र पश्यतु, मम पिता कुत्र कार्यं करोति इति प्रश्नः. इफ् ऐ एम् गोयिङ्ग् टु आस्क् ए क्वश्चन्, मम पिता कुत्र कार्यं करोति इति प्रश्नः. तस्य उत्तरं कुत्र, कुत्र कार्यं करोति, कुत्र इति प्रश्नस्य उत्तरं सर्वदा साधारणतया, साधारणतया सप्तमीविभक्तौ एव भवति. अत्र कार्यालयः इति पदस्य सप्तमी रूपं योजयित्वा वदतु.
कार्यालयः कार्यालये.
अधुना पुनः एकवारं तदेव वाक्यं रचयतु.
मम पिता कार्यालये कार्यं करोति.
द्वितीयं करोतु.
मम पिता वित्तकोषे कार्यं करोति.
अग्रिमम्.
मम पिता यन्त्राग्रामे कार्यं करोति.
अत्र यन्त्रागारे,
ओके, गारे, ओके. मम पिता यन्त्रागारे कार्यं करोति.
वित्तकोशः इत्युक्ते किं जानाति वा भवती?
बैङ्क्.
यन्त्रागारम् इत्युक्ते
फ्याक्टरि.
उत्तमम्. अग्रिमं करोतु.
ओके, मम सहोदरः, और् शुड् ऐ जस्ट् से पिता?
किमपि, मम पिता अथवा पिता.
ओके, मम पिता दूरवाणी मये केन्द्रे कार्यं करोति. दूरवाणी. ओके, ओके.
अत्र पदं किं दत्तमस्ति इत्युक्ते दूरवाणीविनिमयकेन्द्रम्.
ध्वनिमयकेन्द्रम्. ओके, मम पिता दूरवाणीध्वनिमयकेन्द्रे कार्यं करोति.
अनन्तरं
मम पिता स्वयसंस्थे कार्यं करोति.
अत्र पदं किं दत्तमस्ति इत्युक्ते स्वायत्तसंस्था.
स्वायत्तसंस्था. ओके, स्वायत्तसंस्था. मम पिता स्वायत्तसंस्थे कार्यं करोति.
अत्र पश्यतु भगिनि, अत्र स्वायत्तसंस्था इति पदमस्ति. अस्मिन् पदे एतत् पदं पदस्य लिङ्गं किं भगिनि?
स्त्रीलिङ्गं. सो स्वायत्तसंस्थायाम्.
उत्तमं, करोतु, पूरयतु.
ओके, मम पिता स्वायत्तसंस्थायां कार्यं करोति.
उत्तमम्. अपि च सहोदरः इति अपि योजयित्वा वदतु, इतोपि पञ्चवाक्यानि.
मम सहोदरः, सहोदरः कार्यालये कार्यं करोति. मम सहोदरः वित्तकोशे कार्यं करोति. मम सहोदरः यन्त्रागारे कार्यं करोति.
तत्र पश्यतु भगिनि, यन्त्रागारे
मम सहोदरः यन्त्रागारे कार्यं करोति. मम सहोदरः दूरवाणी 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 ध्वनिमये केन्द्रे कार्यं करोति.
उत्तमम्.
मम सहोदरः स्वास्थ्यसंस्थायां कार्यं करोति.
उत्तमम्. मम सहोदरः स्वायत्तसंस्थायां कार्यं करोति. उत्तमम्. धन्यवादः भगिनी. अनन्तरं यस्य कस्यापि क्रमः न आगतः वा इदानीं पर्यन्तं? डिड् आल् आफ़् यू गेट् ए चान्स् टु पार्टिसिपेट्? अत्र 913 सङ्ख्या अस्ति. कस्याः दूरवाणी 913? अत्र कस्याः दूरवाणीसङ्ख्या 913? नो चेत् तत्र हेन्ड्रिक्स् महोदय, भवान् कर्तुमिच्छति वा? हेन्ड्रिक्स्?
यस्,
करोतु. अत्र अन्ततो गत्वा अत्र 5.3 भागे एकं पदबन्धं दत्तमस्ति. पदबन्धं पूरयितुं प्रयत्नं कुर्मः अधुना. पदबन्धम् इत्युक्ते किं जानाति वा? भवान् किञ्चित् जानाति वा, संस्कृतं जानाति वा? नो चेत् अत्र शृणोतु. अधुना अहं सुबरो महोदय, भवान् करोति वा अत्र पदबन्धं पूरयति वा?
आम्
करोतु महोदय.
एतं पदबन्धम् उचितपदैः पूरयन्तु. पूरयतु. यथा चालकः अत्र अस्ति.
चालकः कुत्र अस्ति साधारणतया? कुत्र भवान् द्रष्टुं शक्नोति चालकं?
लोकयाने अस्ति.
अनन्तरं
भवतः माता कुत्र अस्ति?
अत्र केवलम् एकमेव अक्षरं दत्तमस्ति, गृ इति दत्तमस्ति. किं तत्र
गृहे अस्ति?
माता गृहे अस्ति. वाक्यं वाक्यं वदतु, पूर्णं वाक्यं वदतु. भवतः माता कुत्र अस्ति?
भवतः माता कुत्र अस्ति? मम माता गृहे अस्ति.
उत्तमं, तथा एव करोतु.
नागरिकाः अत्र वसन्ति.
कुत्र वसन्ति नागरिकाः?
नागरिकाः नगरे वसन्ति.
तदर्थमेव अत्र ये जनाः नगरे वसन्ति तेषां नाम एव नागरिकाः. दोस् पीपल् हू लिव् इन् द सिटीस् दे आर् काल्ड् सिटिजन्स् इन् द सेम् वे. अत्रापि ये जनाः नगरे वसन्ति ते नागरिकाः. अतः तदर्थमेव अत्र रे इति अक्षरं दत्तमस्ति. भवान् पूरितवान्. उत्तमम्. अनन्तरं करोतु.
अत्र कार्याणि कुर्वन्ति.
कुत्र?
कार्यालये कार्याणि कुर्वन्ति.
उत्तमम्. अत्र प्रथमवर्णः का? भवान् अवगतवान्, वदतु.
भवान् कुत्र पठति? अहं विद्यालये पठति.
पुनः?
अहं विद्यालये पठामि.
विद्यालये पठामि. भवान् कुत्र पठति? अत्र वि इति दत्तमस्ति, अपि च ये अन्तिमवर्णम् अपि दत्तमस्ति. केवलं मध्ये वर्णद्वयमेव पूरणीयम्. अन्तिमम् अग्रिमं करोतु.
धनम् अत्र रक्षामः.
कुत्र?
धनं वित्तकोषे रक्षामः.
इत्युक्ते वित्तकोशः इति प्रथम अविभक्तिरूपं, परन्तु कुत्र रक्षामः? वित्तकोशे रक्षामः. अतः वित्तकोशः इति पदस्य सप्तमी रूपं वित्तकोशे इति भवति. धनं सर्वदा वित्तकोषे स्थापयामश्चेत् सुरक्षितं भवति इति वयं सर्वे जानीमः. अनन्तरं
चलनचित्रम् अत्र पश्यतु.
कुत्र
चलनचित्रं? चित्रमन्दिरे पश्यतु.
अपि च गृहे अपि द्रष्टुं शक्नुमः न वा? चलनचित्रं मन्दिरे अपि वयं द्रष्टुं शक्नुमः, अपि च गृहे अपि. इदानीं गृहे अपि वयं चलनचित्रं द्रष्टुं शक्नुमः. अनन्तरं वदतु, अन्तिमं करोतु.
माशी कुत्र अस्ति?
मशी.
मशी
तत्र दीर्घः न, केवलं ह्रस्व अकारः एव अस्ति. मशी कुत्र अस्ति?
मशी कुत्र अस्ति?
मशी इत्युक्ते किं जानाति वा भवान्?
मशी इत्युक्ते
कः वदति? मही मशी इत्युक्ते किम्? मशी इत्युक्ते इङ्क्. हा वदतु भगिनि, वदतु.
भूमि.
हा मशी इत्युक्ते न भगिनि, मशी इत्युक्ते इङ्क्. आङ्ग्लभाषायाम् इङ्क् वदामः. लेखनीं लेखन्यां यत् कृष्णवर्णे अस्ति तदेव मशी, सा एव मशी इति वदामः. अत्र चिन्तयित्वा वदतु महोदय, मशी कुत्र भवति साधारणतया? भवान् कुत्र द्रष्टुं शक्नोति?
मशी लेखन्याम् अस्ति.
उत्तमं. लेखन्याम् इति नो चेत् अन्यं पदं, लेखन्यामेव, अङ्कन्या इति न वदामः.
कूप्याम् अस्ति.
उत्तमं. मशी अत्र लेखनी इति पदमेव योजनीयं. किमर्थं? लेखन्याम् एव मशी अस् भवति, न तु अङ्कन्या. उत्तमम्, उत्तमं महोदय. भवानेव वदतु. अधुना अहं कानिचन पदानि वदामि. सप्तमी विभक्त्यन्तरूपं वदतु. अत्र स्थालिका इति पदमस्ति, तस्य सप्तमी रूपं किम्?
स्थालिका, स्थालिका, स्थालिकायां.
पेटिका.
पेटिकायां.
निधानिका.
निधानिकायां.
कपाटिका.
कपाटिकायां.
सदनिका.
सदनिकायां.
उत्तमं. पत्रिका.
पत्रिकायां.
उत्तमं. बाष्पस्थाली वदतु महोदय.
बाष्पस्थाल्यं.
स्थाल्यां.
बाष्पस्थाल्यां.
लेखनी.
लेखन्यां.
दर्वी.
दर्व्यां.
नदी.
नद्यां.
चषकाधानी.
चषकाधान्यां.
कूपी.
कूप्यां.
उत्तमं. पुंलिङ्गपदानि, कानिचन अन्यानि पदानि वदामि. एक प्रथमाविभक्तिरूपं वदामि, भवान् सप्तमी विभक्तिरूपं वदतु. चषकः.
चषके.
दन्तकूर्चः.
दन्तकूर्चिके.
पुनः.
दन्तकूचकः.
अत्र महोदय पदम्, अत्र पदं किम् अस्ति चेत् दन्तकूर्चः.
दन्तकूर्चके.
दन्तकूर्चे. कूर्चे तत्र ककारं नास्ति. घटः. सर्वे शृण्वन्तु, भवन्तः यदि जानन्ति चेत् पुनस्मरणं भवति, नो चेत् प्रथमवारं शृण्वन्ति चेत् सर्वे शृण्वन्तु. यथा महोदय उक्तवान् तदा सर्वे शृण्वन्तु, तथा एव वयं अवगन्तुं शक्नुमः. आसन्दः वदतु.
आसन्दः. आसन्दे. आसन्दे.
कटः.
कटके.
कटः. कटे. स्यूतः.
कटे. स्यूते.
छदः.
पुनः वारं वदन्तु भगिनि.
छदः. छदः.
छद. छदः. छदे.
छदे. कटः.
कटे.
ग्रामः.
ग्रामे.
उत्तमम्. अनन्तरं पुस्तकं किं भवति?
पुस्तकं नपुंसकलिङ्गं. पुस्तके.
वस्त्रं?
वस्त्रे.
नगरं?
नगरे.
शयनमन्दिरं?
शयनमन्दिरमे.
पुनः
शयनमन्दिरे.
विमानपत्तनं?
पुनः एकवारं भगिनि.
विमानपत्तनं?
विमानपत्तने.
पाकगृहं?
What is the meaning of Vimanapattane?
Like aerodrome city.
Okay, aerodrome. Okay.
Vimanapattanam. Pakagruham.
Pakagruhe.
Uttamam. Aham padadvayam dadami. Vakyam rachayitu mahodaya. Bhaktaha devalayaha.
Bhaktaha? Devalaye agacchati.
देवालये अस्ति. देवः देवालयः.
ओके. देवः देवा देवः देवालये अस्ति.
सूर्यः आकाशः.
सूर्यः आकाशे अस्ति.
विमानः?
विमानः आकाशे चलति.
उत्तमं. चन्द्रः आकाशः.
चन्द्रः आकाशे अस्ति.
मेघः आकाशः.
मेघः आकाशे अस्ति.
जनकः कार्यालयः.
जनकः कार्यालये कार्यं करोति.
कार्यं करोति. कोऽपि वक्तुमिच्छति वा? इफ् यु एनिबडि आफ् यु वाण्ट् टु डू दिस् एक्ससैज़् प्लीज़् रैस् युवर् वाय्स्. कोऽपि वक्तुमिच्छति चेत् अन्यान् प्रश्नान् पृच्छामि. नो चेत् महोदय भवान् एव करोतु. अत्र मूल्याङ्कः पत्रालयः.
मूल्याङ्कः पत्रालये करोति.
पत्रालये अस्ति. अत्र केवलम् अस्ति सप्तमीरूपम् एव. वयं सप्तमीरूपाभ्यासकृते एव अहं पृच्छामि. छात्रः विश्वविद्यालयः.
छात्रः विश्वविद्यालये पठति.
पठति. युवती प्रकोष्ठः.
युवती प्रकोष्ठके अस्ति.
प्रकोष्ठे अस्ति.
प्रकोष्ठे अस्ति.
नक्षत्रम् आकाशः.
नक्षत्रः आकाशे अस्ति.
अत्र पदमस्ति नक्षत्रम्. बहुवचनरूपं वदतु महोदय. बहुवचनं वदतु. तदेव वाक्यं.
नक्षत्राणि आकाशे सन्ति.
उत्तमं. नक्षत्राणि आकाशे सन्ति. फलं वृक्षः.
फलानि वृक्षे सन्ति.
पुस्तकं ग्रन्थालयः.
पुस्तकानि ग्रन्थालये सन्ति.
उत्तमं. पिष्टकं पात्रं. पिष्टकम् इत्युक्ते किं जानाति वा? पिष्टकं.
पिष्टकं
इत्युक्ते पिष्टकम् इत्युक्ते अत्र फ्लोर् इति वदामः. फ्लोर्. फ्लोर् इति वदामः.
पिष्टकानि पात्रे अस्ति सन्ति.
पात्रे सन्ति. उत्तमम्. अनन्तरं अपि च अत्र कार्यालयः नगरम्.
कार्यालयाः नगरे सन्ति.
उत्तमं महोदय. अधुना वयं किं कुर्मः इत्युक्ते, धन्यवादः महोदय, अत्र कादम्बरी भगिनी भवती अस्माकं पार्श्वे एका कथा अस्ति. कथां पठितुमिच्छति वा?
अस्तु
पठतु. कश्चन बालकः कथां पठतु. एका कथा अस्ति, अपि च अन्यः निबन्धः इति वदामः संस्कृतभाषायां. निबन्धः इत्युक्ते एस्से, कम्पोसिशन्. एका कथा अस्ति, एकः निबन्धः अस्ति. अत्र प्रथमं कथां पठामः. यदि समयः अस्ति चेत् निबन्धमपि पठितुं शक्नुमः, नो चेत् अग्रिमे सप्ताहे पठामः. शीघ्रं वयं कथां पठित्वा समापयामः. करोतु.
कश्चन बालकः अस्ति, सः अलसः अस्ति. सः प्रतिदिनं समेन विद्यालयं न गच्छति. एकदा सः उद्यानं गच्छति. तत्र एकं काकं पश्यति. सः काकं क्रीडार्थम् आह्वयति. काकः वदति, मम समयः नास्ति इति. अनन्तरं सः एकं शुकं पश्यति. बालकः शुकं क्रीडार्थम् आह्वयति. सः शुकम् अपि, मम समयः नास्ति इति वदति. अनन्तरम् एकां पिपीलिका पश्यति.
पिपीलिकां भगिनि, अत्र बिन्दुः अस्ति, उपरि बिन्दुः अस्ति भगिनि. पिपीलिकां,
पिपीलिकाम् अस्ति, पश्यति.
उत्तमम्.
क्रीडार्थम् आह्वयति च. तदा पिपीलिका अपि समयः नास्ति इति वदति. बालकः सर्वं शृणोति. तस्य लज्जा भवति. सर्वे स्वस्वकार्ये निरताः इति जानाति. सः विद्यालयं समेन गच्छति. सम्यक् पठति च.
उत्तमं. भवती अवगतवती वा?
आम्.
उत्तमम्. अधुना वयं किं कुर्मः इत्युक्ते किञ्चित् किञ्चित् शीघ्रम् अत्र पङ्क्तिशः पश्यामः. प्रथमवाक्यमस्ति, प्रथमवाक्यं किम्?
कश्चन बालकः अस्ति.
अत्र कश्चन इति पदमस्ति, पदं जानाति वा? पूर्वमेव जानाति वा कश्चन? कश्चन इति पदं वदतु. कश्चन कश्चन इत्युक्ते किम् अत्र? अत्र अत्र पश्यतु भगिनि, कश्चन इत्युक्ते एकः बालकः अस्ति, परन्तु तस्य नाम किं, सः कः इति वयं न जानीमः. एकः बालकः, कश्चन बालकः, सम् बाय् अत्र, तस्य नाम किम् इति वयं न जानीमः. अतः एव कश्चन बालकः इति वदामः. परन्तु अत्र कश्चन इति पदे पदद्वयमस्ति, कः चन. कः योगः चन इति वदामः, तत्र विसर्गसन्धिः भवति. कः, भवती जानाति एव, सः कः इति वदामः. तथा एव कः योगः चन इति योजयामश्चेत् तत्र विसर्गस्य स्थाने शकारः आगतः. अतः एव कश्चन बालकः. सः कः इति वयं न जानीमः, परन्तु एकः बालकः अस्ति. परन्तु सः कीदृशः बालकः? सः अलसः इत्युक्ते लेज़ी. उत्तमम्. अत्र अलसः, भवन्तः सर्वे जानन्ति एव आलस्यम् इति पदमस्ति. अलसस्य भावः आलस्यम् इत्युक्ते यः किमपि कार्यं कर्तुं न इच्छति, अथवा यः मन्दं मन्दं चलित्वा कार्यं करोति, अथवा कार्यं कर्तुं न एव इच्छति, शनैः शनैः कार्यं मन्दं मन्दं कार्यं करोति, अथवा तस्मिन् जडत्वमस्ति, सः शीघ्रं शीघ्रं किमपि न करोति, एषः बालकः, अतः एव तस्मिन् आलस्यम् अस्ति. इत्युक्ते सः सर्वदा शीघ्रं शीघ्रं कार्यं न करोति, अतः एव सः अलसः. उत्तमम्. अलसस्य भावम् आलस्यम् इति वदामः. सः अलसः भूत्वा किं करोति प्रतिदिनं, किं न करोति, किं न करोति?
सः प्रतिदिनं समये समयेन विद्यालयं न गच्छति.
उत्तमं. प्रतिदिनम् अत्र एकं पदमस्ति, प्रतिदिनम् इति पदम् अव्ययम् इति वदामः. साधारणतया अव्ययपदस्य एकं लक्षणमस्ति, इत्युक्ते अव्ययपदस्य लिङ्गवचनविभक्तिरूपाणि कदापि न भवन्ति. इत्युक्ते प्रतिदिनम् इति पदं सर्वदा प्रतिदिनम् इति एव भवति, न कदापि प्रतिदिने किमपि रूपपरिवर्तनं न भवति तस्य. इत्युक्ते प्रतिदिनम् इति पदम् अव्ययम्, अतः तस्य रूपपरिवर्तनं न कदापि भवति. अनन्तरम् अत्र समयेन इति पदमस्ति, सः प्रतिदिनं समयेन विद्यालयं न गच्छति. समयेन न गच्छति इत्युक्ते किं जानाति वा?
He doesn't go on time to school.
उत्तमम्. तदेव संस्कृतभाषायां वक्तुमिच्छामश्चेत् सः समयेन विद्यालयं न गच्छति, अथवा सः यदार्थसमये, यथा विधिपूर्वकं यदार्थसमये समये सः न गच्छति. सः विद्यालयं समयेन किमर्थं न गच्छति, तस्य कारणं किम्?
सः
अलसः, अतः एव समये न गच्छति. यदि वयमपि यदा कदापि अलसाः भवामः चेत् तदा सम्यक् रीत्या समयेन कार्याणि न कर्तुं शक्ष्यामः, अस्माकं जीवने अपि यदा कदापि तदा तथा भवति, भवति किल? यदा कदापि वयम् अलसाः भवामश्चेत् समयेन कार्याणि न कुर्मः. उत्तमम्. अनन्तरं किमस्ति अत्र?
एकदा सः उद्यानं गच्छति.
किमर्थम् उद्यानं गच्छति? सः कार्यालयम् अगत्वा उद्यानं गच्छति, किमर्थम्?
तत्र एकं काकं पश्यति.
साधारणतया वयम् उद्यानं किमर्थं गच्छामः?
क्रीडार्थम्.
उत्तमं. साधारणतया क्रीडार्थं गच्छामः, नो चेत् तत्र उद्याने पुष्पाणि सन्ति, फलानि सन्ति, अथवा पक्षिणः सन्ति, लघ्वः जन्तवः सन्ति, द्रष्टुं तेषां दर्शनार्थं वयं सर्वे उद्यानं गच्छामः. परन्तु अत्र अलसः बालकः क्रीडार्थं गच्छति उद्यानं. गत्वा तत्र किं पश्यति?
तत्र एकं काकं पश्यति.
काकं दृष्ट्वा किं वदति?
सः काकं क्रीडार्थम् आह्वयति.
काकं क्रीडार्थम् आह्वयति. काकः किम् उत्तरं ददाति?
काकः वदति, मम समयः नास्ति इति.
मम समयः नास्ति इत्युक्ते अहं क्रीडार्थम् आगन्तुं न शक्नोमि, मया कर्तव्यं कार्यं बहु किमपि अस्ति, अतः अहं क्रीडार्थं नागच्छामि इति काकः वदति. सः अनन्तरं किं कृतवान्?
अनन्तरं सः एकं शुकं पश्यति.
शुकः किं वदति?
बालकः शुकं क्रीडार्थम् आह्वयति. सः शुकः अपि मम समयः नास्ति इति वदति.
उत्तमम्। इत्युक्ते अत्र शुकः अपि तदेव उक्तवान्, तेनापि कर्तव्यानि कार्याणि बहूनि सन्ति, अतः शुकः अपि मम समयः नास्ति, अहं न आगन्तुं शक्नोमि, यदि भवान् क्रीडितुमिच्छति चेत् क्रीडतु, अहं न आगच्छामि इति सः अपि उक्तवान्। अनन्तरं सः किं कृतवान्?
अनन्तरं एकां पिपीलिकां पश्यति।
पिपीलिका इत्युक्ते वदतु, पिपीलिका किम् अवदत्?
क्रीडार्थम् आह्वयति च, तदा पिपीलिका अपि समयः नास्ति इति वदति।
उत्तमम्। इत्युक्ते पिपीलिका अपि एवमेव उक्तवती यथा पूर्वं, यथा पूर्वं काकः वदति अपि च शुकः वदति तथा एव अत्रापि पिपीलिका अपि तदेव वदति, मम पार्श्वे समयः नास्ति अतः अहम् आगन्तुं न शक्नोमि। सः किं कृतवान्?
बालकः सर्वं शृणोति।
श्रुत्वा
तस्य लज्जा भवति।
किमर्थं सः लज्जितः अभवत्?
सः अलसः भवति।
उत्तमं, तदेव इत्युक्ते तत्र सः सर्वं श्रुत्वा चिन्तितवान्, किञ्चित् कालपर्यन्तं चिन्तितवान्, एते किमर्थं तथा वदन्ति, किमर्थम् इति सः किञ्चित् कालपर्यन्तं चिन्तितवान्। अनन्तरं सः तस्य दोषम् अवगतवान्, दोषम् इत्युक्ते तस्य दोषस्य अवगमनं जातं। दोषः कः अत्र? सः किं चिन्तयति, किम् अवगतवान् सः?
सर्वे स्वकार्ये निरताः।
सर्वे स्वस्वकार्ये निरताः इति सः जानाति, सर्वे स्वस्य कार्यैः कार्ये निमग्नाः, निरताः, इत्युक्ते अत्र निमग्नाः। उत्तमम्। अनन्तरं वदतु अन्यं वाक्यं।
सः इति जानाति,
इत्युक्ते अत्र सर्वे जन्तवः स्वस्य कार्येषु व्यस्ताः भवन्ति अथवा निमग्नाः भवन्ति, परन्तु अहमेव केवलं विद्यालयम् अगत्वा अत्र क्रीडितुम् आगतवान् इति सः तस्य अपराधं ज्ञातवान्, तस्य दोषस्य अवगमनं जातम्, अतः एव सः तस्य लज्जा भवति, इत्युक्ते सः लज्जितः अभवत्, लज्जितः भूत्वा अनन्तरं सः तस्य दोषं ज्ञात्वा तदनन्तरं विद्यालयं सम्यक् रीत्या समयेन गच्छति अपि च सम्यक् पठति। कथायाः नीतिः का वदतु, भवती एव वदतु।
वयम् अलसः न भवति।
भवतु, उत्तमम् उत्तमम्। अलसः मा भवतु। अनन्तरं
स्वकार्यं करोतु।
उत्तमं, स्वकार्यं करोतु, उत्तमं भगिनी, सम्यक् रीत्या उक्तवती। यदि कोऽपि वक्तुमिच्छति चेत् कथायाः नीतिः का, अन्यानि वाक्यानि रचयन्तु। Any of you want to say the moral of the story, please explain in your own words. Kathayah niti hika. Subharu Mahadeya, bhavan kartum ichchati va?
Learn from other living beings.
Uttamam. Katham badamaha? Ichukte atra prakrutyam sarve jantavaha सर्वदा स्वस्य कार्येषु निमग्नाः भवन्ति, तथा एव वयमपि अस्माकं कार्येषु निमग्नाः भवामः. इत्युक्ते अत्र अलसः मा भवतु, सर्वे विद्युक्तकार्याणि निर्वहन्तु. यदा कदापि नियमपालनं न कर्तुमिच्छामश्चेत् तदा तस्य कारणं किम् इति चिन्तयतु. सर्वदा अलसत्वम् एव हेतुः भवति. द ओन्लि रीज़न् इस् द लेज़िनेस्, देन् ओन्लि वी फील् लैक् नाट् डूयिङ्ग् दट् वर्क्. अतः न कदापि अलसः मा भवतु, नियमपालनं करोतु, विद्युक्तकार्याणि निर्वहन्तु इति एव कथायाः नीतिः. अधुना पाद समयः जातः, वयं विरमाम, अग्रिमे सप्ताहे मिलामः. धन्यवादः सर्वे. अन्यं करपत्रम् अस्ति, तस्मिन् करपत्रे वर्षाकालः नाम्ना एकः निबन्धः अस्ति. सर्वे एकवारं पठन्तु, पठित्वा तत्र विषयम् अवगत्य सम्यक् रीत्या अवगच्छन्तु, एकवारम् आस्वादं करोतु. तत्र बहूनि उत्तमानि पदानि सन्ति, अपि च सर्वाणि पदानि तस्मिन् निबन्धे बहुवचनरूपे क्रियापदानि दत्तानि. यदि भवन्तः इच्छन्ति चेत् तदेव निबन्धं स्वीकृत्य एकवचने सर्वाणि वाक्यानि एकवचने रचयितुं प्रयत्नं कुर्वन्तु. तत्र वर्षाकालः इति निबन्धं स्वीकृत्य अधुना विरमाम. सर्वेषां धन्यवादः.
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 धन्यवादः. धन्यवादः.